गणान् त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतान् शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो तैशवे नमः नमस्ते अस्तु धन्वने बाहुव्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्याजातपतया नो रुद्रमृडया या ते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनु वाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहि पुंसि पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्चावदामसे यथा नः सर्वमिज्जगदयक्ष्मगुम् सुमना असत् अद्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहेगुश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रिताः सहस्रशो वैशागुम् हेळ इमहे असौ यो वसर्पतिनील ग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराग्नियोर्ज्याम् याश्च ते हस्कैशवः पराता भगवो वप अवतत्यदनुस्त्वगुम् सहस्राक्षशतेषु ते निशेर्य शल्यानामुका शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निशम् गतिः या ते हेतिर्मीदुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नादताय धृष्णवे उभाव्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्नृणस्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः। सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो। बब्लुषाय विव्याधिनेन्नानां पतये नमो नमो। हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो। भवस्य हेत्यै जगतां पतये नमो नमो। रुद्राय तथा विने क्षेत्राणां पतये नमो नमः। सूताय हन्त्याय वनानां पतये नमो नमो। रोहिताय स्थपतये वृक्षाणां पतये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो। भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम। उच्चैर्घोषाया क्रन्दयते पत्थीनां पतये नमो नम। कृत्स्नभीताय धावते सत्त्वनां पतये नमः। नमः सहमानायने व्याधिना व्याधिनीनां पतये नमो नमः। ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो। निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो। वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो। निचेरवे परिचरायारण्यानां पतये नमो नम। श्रिकाविभ्यो जिघागुं सद्व्योमुष्णतां पतये नमो नमो। श्रीमद्भ्यो नक्तं चरद्य प्रकृन्तानां पतये नमो नम। उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम। इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो। नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम। आसीनेभ्य शयानेभ्यश्च वो नमो नमः। स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः। सभाभ्य सभापतिभ्यश्च वो नमो नमो। अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनेभ्यो विविद्यन्तेभ्यश्च वो नमो नम। उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो। कृत्सेभ्यो कृत्सपदेभ्यश्च वो नमो नमो। व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो। गणेभ्यो गणपतिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो। रथिभ्यो रथेभ्यश्च वो नमो नमो। रथेभ्यो रथपतिभ्यश्च वो नमो नमः। सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः। शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः। रक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः। कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः। पुञ्जश्चेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयुभ्यश्वनिभ्यश्च भो नमो नम श्वभ्यश्वपतिभ्यश्च भो नमः नमो भवाय च रुद्राय च नव सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च समृद्ध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रयाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जघन्याय च बुध्नीयाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूथिने च नमो भिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैशम्भाय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे बधाय च दूरे बधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रचरणाय चोत्तरणाय च नमः तार्याय च लाद्याय च नमः शश्व्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च विघ्नते च नमः आखिदते च प्रक्षिदते च नमो वक्किरिकेभ्यो देवानागुमृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रावे अन्धसस्वते दरिद्रन्नीलोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो एषाम् किञ्च नाममत् या ते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तव शेकपर्दिने क्षयद्वेराय प्रभरामहे मतिम् यथा नः शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडा नो रुद्रोत नो मयस्कृते क्षयद्वेराय नमसा विधेमते यच्चम् च योश्चमनुरायजे पिता तदश्याम तव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररेषः मानस्तो केतन ये मान आयुषि मानो गोषु मानो अश्वेषुरेषः वीरान्मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विधेमते आराते गोप्न उत पूरुषग्ने क्षयद्वेराय सुम्नवस्मे ते अस्तु रक्षा च नो अदि च देव ब्रूह्यदा च न शर्म यच्छद्विबर्हाः स्तुहि श्रुतम् गर्थ सदैयुवानम् मृगन्न धीममुपहत्नुमुग्रम् मृडा च ऋत्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः अवस्थिरा मघवद्रस्तनुष्वमीड्वत्तोकायतनयाय मृडया मीडुष्टम शिव तम शिवो न सुमना भव परमे वृक्ष आयुधन्निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहे विकीर्णविरोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचेनामुखाकृधे सहस्राणि सहस्रशो ये रुद्र अधिभूम्याम् तेषागुम् सहस्रयोजने बधन्वाणि तन्मसे अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधे नीलग्रेवा शितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रेवा शितिकण्ठादिवगुम् रुद्र उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रेवा विलोहिताः ये भूतानामधिपतयो विशिखाश कबर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विभतो जनान् ये पथाम् पतिरक्षय ऐलभृदा यव्युधः ये तीर्थानि प्रचरन्ति श्रृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयोजने वदन्वाणि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यान्येऽन्तरिक्षे ये दिव्ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदे चेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृळयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् वेद ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षे यमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवनाभिवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्योर्मर्त्या यहन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहे तमुष्टु हियस्विषुः सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देववसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णु सजोषसे मावर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रथवश्च मे प्रगतिश्च मे प्रसृतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च महाधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनूश्च मे चर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जयेष्ट्यम् च महाधिपत्यम् च मे मन्युश्च मे
ృహస్పతిశ్చ మహేంద్రశ్చ మే మిత్ర
ఇంద్రశ్చ మహేంద్రశ్చ మే
వరుణశ్చ
మహేంద్రశ్చ మే ద్వష్టా చ మహేంద్రశ్చ మే ధాతా చ మహేంద్రశ్చ మే విష్ణుశ్చ మహేంద్రశ్చ మే శ్వినౌ చ మహేంద్రశ్చ మే మరుతశ్చ మహేంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మహేంద్రశ్చ మేంద్రక్షం చ మహేంద్రశ్చ మే ద్యౌశ్చ మహేంద్రశ్చ మే దిశశ్చ మహేంద్రశ్చ మే మూర్ధా చ మహేంద్రశ్చ మే ప్రజాపతిశ్చ మహేంద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ వేధాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంసుశ్చ మేందర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంధే చ మ ఆగ్రగణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్రశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదీయాశ్చ మే మాకేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీవతశ్చ మే హార్యోజనశ్చ మే ఇత్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణ్యాశ్చ మే శ్రుతశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే
విషవణే చ మే
ద్రోణకలశశ్చ మే వాయవ్యానిజ మే భూతభృక్ష మ ఆధవనీయశ్చ మ ఆగ్నేర్ధం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే
పురోడాశా
మే పశదాశ్చ మే వభృతశ్చ మే స్వకాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే స్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే చక్వరే రంగులయో దిశశ్చ మే యజ్ఞేన కల్పందామృత్య మే సామ చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మ ఋతుశ్చ మే వ్రతం చ మే హోరాత్రయో దృష్ట్యా బృహద్రతం తరే చ మే యజ్ఞేన కల్పేత గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే దిత్యవాక్ష మే దిత్యౌహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాక్ష మే తుర్యౌహే చ మే పట్టవాక్ష మే తౌహే చ ఉక్షా చ మే భషా చ మ ఋషభశ్చ మే దేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతా ప్రాణో యజ్ఞేన కల్పతామ పానో యజ్ఞేన కల్పతామ వ్యానో యజ్ఞేన కల్పతామ చక్షుర్యజ్ఞేన కల్పతా శ్రోత్రం యజ్ఞేన కల్పతామ మనో యజ్ఞేన కల్పతామ వాగ్ యజ్ఞేన కల్పతామ ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిత్రశ్చ
ಚಮೇ ಪಂಚ ಚಮೇ ಸಪ್ತ ಚಮೇ ನವ ಚಮಗೇ ಕಾದಶ ಚಮೇ
ತ್ರಯೋದಶ ಚಮೇ
ಪಂಚದಶ ಚಮೇ ಸಪ್ತದಶ ಚಮೇ ನವದಶ ಚಮಗೇ ಕವಿಗುಂಶತಿಶ್ಚಮೇ ತ್ರಯೋ ವಿಗುಂಶತಿಶ್ಚಮೇ ಪಂಚ ವಿಗುಂಶತಿಶ್ಚಮೇ ಸಪ್ತ ವಿಗುಂಶತಿಶ್ಚಮೇ ನವ ವಿಗುಂಶತಿಶ್ಚಮಗೇ ಕರ್ತೃಗುಂಶಚ್ಚಮೇ ತ್ರಯಸ್ತ್ರಿಗುಂಶಚ್ಚಮೇ ಚತಸ್ರಶ್ಚಮೇ ಚೌಚಮೇ ದ್ವಾದಶ ಚಮೇ ಷೋಡಶ ಚಮೇ ವಿಗುಂಶತಿಶ್ಚಮೇ ಚತುರ್ವಿಗುಂಶತಿಶ್ಚಮೇಷ್ಟಾವಿಗುಂಶತಿಶ್ಚಮೇ ದ್ವಾತ್ರಿಗುಂಶಚ್ಚಮೇ
ಷತ್ರಿಗುಂಶಚ್ಚಮೇ
ಚತ್ವಾರಿ ಗುಂಶಚ್ಚಮೇ ಚತುಶ್ಚತ್ವಾರಿ ಗುಂಶಚ್ಚಮೇಷ್ಟಾ ಚತ್ವಾರಿ ಗುಂಶಚ್ಚಮೇ ವಾಜಶ್ಚ ಪ್ರಸವಶ್ಚಾಭಿಜಶ್ಚಕ್ರತುಶ್ಚ ಸುಭಶ್ಚ ಮೂರ್ಧಾ ಚ ವ್ಯಶ್ನಿಯಶ್ಚಾಂತ್ಯಾಯನಶ್ಚಾಂತ್ಯಶ್ಚ ಭೌವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚ ಇಡಾದೇವಹೋರ್ಮನುರ್ಯಜ್ಞನಿ ಬೃಹಸ್ಪತಿರುದ್ಧಾಮದಾನಿ ಜಗುಂಜಿಷ ವಿಶ್ವೇ ದೇವಾಸೋಕ್ತವಾಚ ಪೃಥಿವೀ ಮಾತರ್ ಮಾಮಾಹಿ ಗುಂಸೇರ್ಮಧು ಮದಿಷ್ಯೇ ಮಧು ಜನಿಷ್ಯೇ ಮಧು ಭಕ್ಷ್ಯಾಮಿ ಮಧು ವದಿಷ್ಯಾಮಿ ಮಧು ಮದೇ ದೇವೇಭ್ಯೋ ವಾಚ ಮುದ್ಯಾದಗುಂ ಶುಶ್ರೂಷೇಣ್ಯಾ ಮನುಷ್ಯೇಭ್ಯ ತಮ್ಮಾ ದೇವಾ ಅವಂದು ಶೋಭಾಗೇ ಪಿತರೋ ನು ಮದಂದು
ಓಂ ಶಾಂತಿ 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 ಓಂ ಹಿರಣ್ಯವರ್ಣಾಂ ಹರಿಣೀಂ ಸುವರ್ಣರಜತಸ್ರಜಾಂ ಚಂದ್ರಾಂ ಹಿರಣ್ಮಯೀಂ ಲಕ್ಷ್ಮೀ ಜಾತವೇದೋ ಮಹಾವಹ ತಾಂ ಮಹಾವಹ ಜಾತವೇದೋ ಲಕ್ಷ್ಮೀ ಮನಪಗಾಮಿನೀ ಯಸ್ಯಾಂ ಹಿರಣ್ಯಂ ಬಿಂದೇಜಂ ಗಾಮಶ್ವಂ ಪುರುಷಾನಹಂ ಅಶ್ವಪೂರ್ವಾಂ ರಥಮಧ್ಯಾಂ ಹಸ್ತಿನಾದ ಪ್ರಬೋಧಿನೀ ಶ್ರಿಯಂ ದೇವೇಮುಪಹ್ವಯೇ ಶ್ರೀರ್ಮಾ ದೇವೀರ್ಜುಷತಾಂ ಕಾಂ ಸೋಸ್ಮಿತಾಂ ಹಿರಣ್ಯ ಪ್ರಾಕಾರಾಮಾರ್ಜಾಂ ಜ್ವಲಂತೀಂ ತೃಪ್ತಾಂ ತರ್ಪಯಂತೀಂ ಪದ್ಮೇ ಸ್ಥಿತಾಂ ಪದ್ಮವರ್ಣಾಂ ತಾಮಿಹೋಪಹ್ವಯೇ ಶ್ರಿಯಂ ಚಂದ್ರಾಂ ಪ್ರಭಾಸಾಂ ಯಶಸಾ ಜ್ವಲಂತೀಂ ಶ್ರಿಯಂ ಲೋಕೇ ದೇವಜುಷ್ಟಾಮುದಾರಾಂ ತಾಂ ಪದ್ಮಿನೀಮೀಂ ಶರಣಮಹಂ ಪ್ರಪದ್ಯೇ ಲಕ್ಷ್ಮೀರ್ಮೇ ನಶ್ಯತಾಂ ತ್ವಾಂ ಋಣೇ ಆದಿತ್ಯವರ್ಣೇ ತಪಸೋಧಿಜಾತೋ ವನಸ್ಪತಿಸ್ತವ ವೃಕ್ಷೋಥ ಬಿಲ್ವಃ ಕಸ್ಯ ಫಲಾನಿ ತಪಸಾನುದಂತು ಮಾಯಾಂತ ರಾಜಾಶ ಬಾಹ್ಯ ಅಲಕ್ಷ್ಮೀಃ ಉಪೈತು ಮಾಂ ದೇವ ಸಖಃ ಕೀರ್ತಿಶ್ಚ ಮಣಿನಾ ಸಹ ಪ್ರಾತುರ್ಭೂತೋಸ್ಮಿ ರಾಷ್ಟ್ರೇಸ್ಮಿ ಕೀರ್ತಿ ವೃದ್ಧಿಂ ದದಾತು ಮೇ ಶಕ್ತಿ ಪಾಶಾಮಲಾಂ ಜ್ಯೇಷ್ಠಾಮಲಕ್ಷ್ಮೀಂ ನಾಶಯಾಮ್ಯಹಂ ಅಭೂತಿಮಸಮೃದ್ಧಿಂ ಚ ಸರ್ವಾನಿರ್ಣುದ ಮೇ ಗೃಹಾತ್ ಗಂಧದ್ವಾರಾಂ ದುರಾದರ್ಶಾನ್ ನಿತ್ಯಪುಷ್ಟಾಂ ಕರೀಷಿಣೀ ಈಶ್ವರೇಕುಂ ಸರ್ವಭೂತಾನಾಂ ತಾಮಿಹೋಪಹ್ವಯೇ ಶ್ರಿಯಂ ಮನಸಕ್ಕಾಮವಾಕೋತಿಂ ವಾಚಃ ಸತ್ಯಮಶೇಮಹೇ पशूनाम् रूपमण्डस्य महिश्रेष्ठयथायशः कर्दमेन प्रजा भूता महिसम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनी आपसृजन्तु स्निग्धानि चिक्लेतवत मे गृहे निज देवीम् मातरम् श्रियम् वासय मे कुले आद्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनी चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः आद्रायकरिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः महावः जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वा विन्देयम् पुरुषानहम् यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् श्रियः पञ्चदशर्चम् च श्रीकामः सततम् जपेत् पद्मानने पद्म ऊरो पद्माक्षे पद्मसम्भवे त्वम् मा भजस्व पद्माक्षि येन सौख्यम् लभाम्यहम् अश्वदायी गोदायी धनदायी महाधने धनम् मेजुषताम् देवी सर्वकामास्य देहि मे पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिगवे रथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो न शुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपेत् सदा
वर्षन्तु ते विभावरिभो
अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यपब्रह्मद्विषोचहे पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधस्त्व व्यासा पद्मासनस्था विपुलकटितटे पद्मपत्रायताक्षे गम्भीरापत्तनाभिस्तनभरणभिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैर्स्नापिता हे वकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीम् क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरी दासीभूतसमस्तदेव वणिताम् लोकैकदीपाङ्कुराम्
श्रीमन्मण्डकटाक्षलब्धविभव
ब्रह्मेन्द्र गङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्द प्रियाम् सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जय लक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशौ पाशमभीति मुद्राम् करैर्वहन्ति कमलासनस्ताम् बालार्ककोटिप्रतिभाम् त्रिनेत्राम् भजेऽहमम्बा जगदीश्वरीम् त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवे नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात्। स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु।
समस्तलोकाः
सुखिनो भवन्तु। ओ शान्ति शान्ति शान्ति।